इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य उत्तराखण्डराज्यं प्रति यास्यति। असौ मुखबा इत्यत्र गंगामातुः शीतकालिक प्रवासे पूजार्चनां दर्शनं च करिष्यति। श्रीमोदी अत्रावधौ द्विचक्रिकाभियानाय दुर्गम पदयात्रायै च हरितध्वजं प्रदर्शयिष्यति। अथ च एकस्मिन् सार्वजनिक समारोहे जनसमूहम् एकं सम्बोधयिष्यति। ध्यातव्यमस्ति यत् उत्तराखण्ड प्रशासनेन अस्मिन् वर्षे शीतकालिक पर्यटन कार्यक्रम समारब्ध। सहस्राधिक संख्यका श्रद्धालव पूर्वमेव गंगोत्री यमुनोत्री केदारनाथ बद्रीनाथ धामनाम शीतकालिक प्रवासानां यात्रां सम्पूरितवन्तः। अस्य कार्यक्रमस्य उद्देश्यं धार्मिक पर्यटनस्य संवर्धनं तथा च स्थानीयार्थव्यवस्थायाः पर्यटन व्यवसायस्य च संवर्धनमिति वर्तते। विदेशमन्त्री डॉ एस जयशंकर विगतयोः द्वयोः दिनयोः स्वीयेन ब्रिटेन देशीयेन समकक्षेण डेविड लैमी इत्यमुना साकं व्यापकीं चर्चां समनुष्ठितवान्। एकस्मिन् सामाजिकान्तर्जालीय सन्देशे डॉ जयशंकर अलिखत् यत् उभौ पक्षौ द्विपक्षीय सम्बन्धानां सम्पूर्णेषु पक्षेषु चर्चां विहितवन्तौ। चर्चावधौ कार्यनीतिक समन्वयनाय राजनीतिक सहयोगाय व्यापारिक गतिविधये च विशिष्टं ध्यानं प्रदत्तम्। असौ अग्रे अवोचत् यत् उभौ पक्षौ एतेषां विषयाणां प्रबलीकरणाय सहमतौ अभवताम्। अपि च युक्रेन संघर्षं पश्चिमैशिया विषयं बांग्लादेशं राष्ट्रमण्डलं च समेत्य क्षेत्रीय वैश्विक प्रसंगयोः विचाराणाम् आदान प्रदानमपि जातम्। अवधेयास्पदं वर्तते यत् डॉ जयशंकरः यो हि अस्य मासस्य नवम दिनांकात् ब्रिटेन आयरलैंड देशयोः आधिकारिक यात्रायाम् अस्ति। सः अद्य आयरलैंड राष्ट्रस्य द्विदिवसीय यात्रायै प्रस्थितो भविष्यति। तत्र डॉ जयशंकरः स्वीयेन आयरिश समकक्षेण साइमन हैरिस इत्येतेन अन्यैः गणमान्य जनैश्च सह वार्तालापं कृत्वा भारतीय समुदायैः सह मेलनं करिष्यति। प्रशासनेन सोनप्रयागतः केदारनाथ पर्यन्तं 12.9 किलोमीटर परिमितस्य दीर्घस्य रज्जुमार्गस्य विकासाय अनुमतिः प्रदत्ता। नवदिल्ल्यां वार्ताहरैः सह सम्भाषमाणः सूचना प्रसारण मन्त्री अश्विनी वैष्णवः सूचितवान् यत् अस्याः परियोजनायाः कुलव्ययः 4,000 कोटि रूप्यकाणि यावत् भविष्यति इति। श्रीवैष्णवेन 12.4 किलोमीटर परिमितस्य लम्बमानस्य हेमकुण्ड साहिब रज्जुमार्गस्य विषये अपि सूचितवान् यो हि 30,700 कोटि रूप्यकाणां व्ययेन निर्मीयते। प्रशासनेन पशुधन स्वास्थ्यस्य रोग निवारणस्य च विषये अपि 80,800,000 कोटि रूप्यकाणां व्ययेन निर्णयः निर्णीतः। केन्द्रीय श्रम मन्त्री डॉ मनसुख मांडवियाः कथितवान् यत् भारतस्य सामाजिक सुरक्षा व्याप्तिः 40.4% द्विगुणं भूत्वा 8.48% यावत् संवर्धितास्ति। जनानां कृते निवेशः इत्येतस्मिन् शीर्षके आधारितम् अर्थसंकल्पनापत्रस्य अनन्तरम् आयोजितम् आन्तर्जालिकं सम्मेलनं सम्बोधयता मन्त्रिणा प्रतिपादितं यत् कस्यापि राष्ट्रस्य बृहत्तमा सम्पत्तिः तस्य राष्ट्रस्य जनाः एव भवन्तीति। असौ कथितवान् यत् 10 नवीनेभ्यः कर्मचारी राज्यागोपनिगमस्य चिकित्सकीय महाविद्यालयेभ्यः स्वीकृतिः प्रदत्ता। पुरुषाणां आईसीसी चैम्पियंस ट्रॉफी इत्येतस्यां क्रिकेट प्रतिस्पर्धायां ह्यः रात्रौ लाहौरनगरे द्वितीये उपान्त्यचक्रे न्यूजीलैंड दलेन दक्षिणाफ्रीकादलं 50 धावनांकैः पराजयित्वा निर्णायक चक्रके द्वन्द्वे भारतीय दलेन साकं क्रीडिष्यते इति वार्ताः।